इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य सायाह्ने जापान चीनयोः यात्रायै निर्गमिष्यति। तत्रासौ टोक्यो नगरे भारत जापानयोः पञ्चदशे वार्षिक शिखर सम्मेलने भागमपि भजिष्यति। प्रधानमन्त्रिणा मोदिना उक्तं यत् कथं जनधन योजनया सम्पूर्णे भारते जीवनं वित्तीय बहिष्कारात् सशक्तिकरणं प्रति परिवर्तितम्। ऋतुविभागेन अद्य छत्तीसगढ़स्य तटीय कर्नाटकस्य मध्य महाराष्ट्रस्य उत्तराखण्डस्य च विभिन्न क्षेत्रेभ्यः प्रचण्ड वृष्टेः सम्भावना प्रकटिता। भूस्खलनेन जम्मू कश्मीर राष्ट्रिय राजमार्गः चतुश्चत्वारिंशत्तमः यातायाताय बाधितः। अपि च भारत बांग्लादेशाभ्यां सीम्नि अपराध निवारणाय संयुक्त प्रयत्नानाम् अभिवृद्धये च संकल्पः संधृतः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य सायाह्ने जापान चीन देशयोः यात्रायै निर्गमिष्यति। तत्रासौ टोक्यो नगरे भारत जापानयोः पञ्चदशे वार्षिक शिखर सम्मेलने भागमपि भजिष्यति। प्रधानमन्त्रिणः नरेन्द्र मोदिनः इयम् अष्टमी जापान यात्रा भविष्यति। सहैव तत्रासौ स्वसमकक्षेण शिगेरु इशिवा इत्यमुना सहापि शिखरवार्तां कुर्यात्। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये प्रोदीरितं यत् उभावपि नेतारौ भारत जापानयोः रणनीतिक वैश्विक सहभागितायाः समीक्षां विधास्यतः। स्वीय यात्रायाः द्वितीय चरणे प्रधानमन्त्री चीनदेशस्य राष्ट्रपतेः शी जिनपिंग इत्यस्य निमन्त्रणम् आधृत्य संघाई सहयोग संघठन शिखर सम्मेलने अगस्त मासस्य एकत्रिंशत् दिनांकात् सितंबर मासस्य एक दिनांकं यावत् चीनस्य यात्रां करिष्यति। प्रधानमन्त्री जनधन योजनायाः अद्य एकादश वर्षाणि पूरितानि। इदं विश्वस्य बृहत्तमासु वित्तीय समावेश परिकल्पनासु अन्यतमास्ति। यस्याः घोषणा प्रधानमन्त्रिणा नरेन्द्र मोदिना 14,2000 अगस्त मासस्य 15 दिनांके रक्तदुर्गस्य प्राचीरात् कृता। एकस्मिन् सोशल मीडिया सन्देशे पीएम जनधन योजनायाः चित्राणि विनिमयी कुर्वता प्रधानमन्त्रिणा मोदिना प्रकाशितं यत् कथं योजनया सम्पूर्णे भारते जीवनं वित्तीय बहिष्कारात् सशक्तिकरणं प्रति परिवर्तितम्। सः उल्लेखितवान् यत् यदा अन्तिमः जनः आर्थिकरूपेण सम्बद्धः भविष्यति तदा सम्पूर्णं राष्ट्रम् एकं भूत्वा अग्रे गमिष्यति। श्रीमोदी अवदत् यत् एषा योजना गौरवं वर्धितवती, जनानां कृते स्वकीयं भाग्यं लिखितुं शक्तिमपि प्रदत्तवती। जम्मूकश्मीरस्य उधमपुर रामवनस्थलयोः सञ्जातेन भूस्खलनेन जम्मूकश्मीर राष्ट्रिय राजमार्गः चतुश्चत्वारिंशत्तमः निरन्तरं यातायाताय तृतीयदिवसेऽपि बाधितः। राष्ट्रिय राजमार्गस्य अवरुद्धत्वात् मार्गे विभिन्नस्थलेषु 600+ अवरुद्धानि सन्ति। 250 किलोमीटर मितात्मकः अयं मार्गः कश्मीरखण्डेन सह देशस्य अन्यक्षेत्राणां योजने महद्भूमिकां समासादयति। अयं मार्गः तावत् उधमपुर जनपदस्य जखेनी चेनानी क्षेत्रयोः भूस्खलनेन अवरुद्धो जातः। मंगलवासरात् आन्ध्रप्रदेशस्य केषुचित् भागेषु मध्यमतः महद्वृष्टिः समजायत। विजयवाड़ानगरस्य कृष्णानद्याः प्रकाशम वैराजस्थलाय प्रथमः सञ्चेतना सन्देशः प्रकाशितः। ऋतुविभागेन आन्ध्रप्रदेशस्य तटीय क्षेत्रेभ्यः ऑरेंज अलर्ट इति नारंग सञ्चेतना प्रसारिता। उत्तर तटीय आन्ध्रप्रदेशे अविभाजित कृष्णा जनपदे च जनाः सावधानतायै सञ्चेतिताः। हिमाचल प्रदेशे ऋतुविभागेन सितंबर मासस्य द्विदिनांकं यावत् वर्षाकालीनः वृष्टेः प्रवर्तनम् आवेदितम्। वृष्ट्याः भूस्खलनेन च प्रभावित क्षेत्रेषु रक्षाकार्याणि तीव्रगत्या अनुवर्तन्ते। चम्बा जनपदे मणिमहेश यात्रायाम् अवरुद्धाः यात्रिणः सुरक्षित स्थाने नीताः। वस्तुतः सञ्चारस्य मार्गसम्पर्कस्य च भग्नत्वात् साहाय्योद्धार कार्याणि दुस्साध्यतया प्रवृत्यन्ते। कांगड़ा जनपदस्य पौंग सेतु बंधात अद्य दशसहस्राधिकैक लक्ष क्योशिक मितं जलं विमोचयिष्यते। अतः प्रशासनेन नदी तीरेषु गमन वर्जनाय जनाः निवेदिताः। अत्रांतरे ऋतुविभागेन अद्य छत्तीसगढ़स्य तटीय कर्नाटकस्य मध्य महाराष्ट्रस्य उत्तराखण्डस्य च विभिन्न क्षेत्रेभ्यः प्रचंड वृष्टेः भविष्यवाण्यपि कृता। प्रियाः श्रोतारः, संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। चीनदेशः अद्य अघोषयत् यत् रूसदेशस्य राष्ट्रपति व्लादिमीर पुतिनम् उत्तर कोरिया देशस्य नेतारं किंग जोंग उन इत्येतं च समेत्य 26 वैदेशीयाः नेतारः सितंबर मासस्य तृतीये दिनांके देशस्य विजय दिवसोत्सवस्य परेड इति पथसंचलने भागं ग्रहीष्यन्ति इति। विजय दिवसस्य पथसंचलने वैदेशीयानां नेतृणाम् उपस्थितिः जापान चीन देशयोः मध्ये कूटनीतिक विवादं जनयति। अपक्वेषु कपासेषु आयात शुल्क मुक्तिं 25-2000 वर्षस्य सितंबर 30 दिनांकात् अपसार्य दिसंबर 31 दिनांक पर्यन्तं विस्तारयितुं सर्वकारेण निर्णयः स्वीकृतः अस्ति। वित्त मंत्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् भारतीय वस्त्र क्षेत्रस्य कृते कपासस्य उपलब्धतां प्रवर्धयितुं एषः निर्णयः स्वीकृतः। पूर्वं अगस्त मासस्य 29 दिनांकात् सितंबर मासस्य 30 दिनांक पर्यन्तं कपासेषु आयात शुल्कं अस्थायी रूपेण मुक्तं कृतमासीत्। राष्ट्रपति द्रौपदी मुर्मू वर्या प्रधानमंत्री नरेन्द्र मोदी च नौखाई पर्वणः देशवासिभ्यः शुभकामनाः प्रदत्तवन्तौ। पश्चिम ओडिशा जनपदेषु बहुप्रतीक्षितः नौखाई उत्सवः अद्य हर्षोल्लासेन सह आमान्यते। अद्य जनाः प्रातः निर्धारित वेलायां स्वेष्ट देवाय नूतनं धान्यं समर्पयन्ति। अस्मिन् दिने जनाः नूतन धान्येन विनिर्मितानां नाना व्यञ्जनानां आनन्दं स्वीकुर्वन्ति। ग्रामीण क्षेत्रेषु गृहप्रमुखाः स्वलाजा क्षेत्रस्य पूजनेन पर्याप्त शस्येभ्यः अनुकूल पर्यावरणाय च प्रार्थनां कुर्वन्ति। ध्यातव्यं यत् नौखाई पर्व ओडिशायाः पश्चिम मण्डलेषु आमान्यते। अयं पर्व प्रमुखरूपेण संबलपुर, बारगढ़, झारसुगुड़ा, बालांगीर, कालाहांडी, नुआपाड़ा, नवरंगपुर, देवगढ़, सुंदरगढ़ प्रभृतिषु क्षेत्रेषु आमान्यते। भारत बांग्लादेशाभ्यां सीम्नि अपराध निवारणाय संयुक्त प्रयत्नानां अभिवृद्धये च संकल्पः संधृतः। बांग्लादेशस्य पिलखाना मुख्यालये आयोजितस्य चतुर्दिवसीय महानिदेशकस्तरीय सीमा सम्मेलनानन्तरं एकस्मिन् संयुक्त वक्तव्ये प्रतिबद्धतेयं प्रकाशिता। भारतीय प्रतिनिधिमण्डलस्य नेतृत्वं सीमा सुरक्षा बलस्य महानिदेशकेन दलजीत सिंह चौधरी इत्यमुना विहितम्। अपरत्र बांग्लादेश पक्षतः नेतृत्वं महानिदेशकः मेजर जनरल मोहम्मद असरफ फज्जमाम सिद्दीकी इत्येषः अकरोत्। उभाभ्यामपि तस्कर कर्मणः अवैध प्रवेशस्य आतंकवादस्य च दूरीकरणार्थं समन्वित सीम प्रबन्धन योजनायाः महत्वोपरि बलं प्रदत्तम्। उभाभ्यामपि पक्षाभ्याम् आतंक गतिविधीनां निराकरणाय असहिष्णुतायाः नित्यानुसरणाय च स्वकीया प्रतिबद्धता प्रकटिता। भारतीय ग्रैंड मास्टर आर प्रज्ञानानन्द इत्यमुना अमेरिकायां सम्पन्नायां सिंकफील्ड प्रतिस्पर्धायाम् उपविजेतुः स्थानम् अवाप्य ग्रैंड शतरंज टूर निर्णायकद्वन्द्वे स्वकीयं स्थानं सुरक्षितम्। अमेरिकायाः वेल्सली स्लो इत्येषः स्पर्धायाम् अस्यां विजयम् अधिगतवान्। अन्ते मुख्यवार्ताः पुनः एकवारम्। प्रधानमन्त्री नरेन्द्रमोदी अद्य सायाह्ने जापान चीन देशयोः यात्रायां निर्गमिष्यति। प्रधानमन्त्रिणा मोदिना उक्तं यत् कथं प्रधानमंत्री जनधन योजनया संपूर्णे भारते जीवनं वित्तीय बहिष्कारात् सशक्तिकरणं प्रति परिवर्तितम्। बांग्लादेश भारत देशाभ्यां सीम्नि अपराध निवारणाय संयुक्त प्रयत्नानां अभिवृद्धये च संकल्पः संधृतः इति वार्ता।